बालकानां कृते बाइबल प्रस्तूयते। यीशु जन्म लेखकेन एडवर्ड ह्यूजेस। www.m1914.org चिरातीते ईश्वर गैब्रियल नामना एका स्वर्गदूती एका सौम्यां सुंदरीं यहूदीं नवयुवतीं च मैरीं प्रति प्रेषितवान्। देवः मैरीं उक्त यत् त्वम् एकः जीजस नामना पुत्रं जनिष्यति, जनैः तं श्रेष्ठतम देवस्य पुत्रं रूपेण यास्यन्ति, सः पुत्रः लोकस्य स्वामी भविष्यति। कथमेदं संभवति, मैरी आश्चर्येन अपृच्छत्। अहं कदापि केनापि सह संभोग न कृतः। पुनः सा देवदूती मैरीम उक्त यत् सः देवस्य पुत्रः भविष्यति, तथा देवात् अगमिष्यति, कोपि तस्य मानवः पिता न भविष्यति। देवदूती मैरीम उक्त यत् तस्याः अग्रजा एलिजाबेथ अपि एकः शिशुं जनिष्यति, एतत् अपि चमत्कारम् अस्ति। अनन्तरं मैरी एलिजाबेथ प्रति अगच्छत्, ते द्वे देवम् अप्रसीदताम्। मैरिया विवाहस्य जोसेफ सह निश्चितेन जातः। यदा जोसेफ ज्ञातं यद् मैरी गर्भवती अस्ति, सः दुःखम् अनुभूतम्। सः अचिन्तयत् यत् कोऽपि अन्यं नरः एतस्य शिशोः पिता अस्ति। जोसेफेन स्वप्ने सा देवदूती आगत्य तम उक्त यत् सः शिशु देवस्य पुत्रः अस्ति, त्वं शिशोः पालन पोषणं कुरु। जोसेफ देवम् अविश्रत अशुश्रुत च, सः तस्य देशस्य विधि अपि अपालयत्। नूतनं विद्याकारणेन सः मैरी सह स्वस्य देशं बेथलेहम करम भुक्तानार्थ अत्यजत्। मैरी शिशोः जननार्थं सिद्धा आसीत्, किन्तु जोसेफ कुत्रापि स्थानम् अप्राप्य। सर्वाणि स्थानानि पूर्णानि आसन्। जोसेफ अन्ततः एकं ध्रुवं प्राप्तवान्, तत्र जीजस अजनयत्। तस्य माता तम् एकस्मिन् द्रोण्यां स्थापितवती, यत्र पशूनां भोजनं स्थापयन्ति। समीपे एकः अजपालकः तस्य स्वपितम् अजाः अरक्षित। देवस्य देवदूती उपस्थित्य तम् एतत् शुभसमाचारम् अवदत्, एतस्मिन् दिने सः त्वम् इदं डेविडस्य नगरे अजन्मत्, यः क्राइस्ट देवः त्वं तं द्रोण्यां प्राप्स्यसि। अकस्मत् बहु देवदूत्य उपस्थितवन्तः, तावदेवम् अप्रसीदन् तथा वदन्ति, देवस्य गरिमा श्रेष्ठतम तथा भूम्यां शान्ति देवः मनुष्यस्य कृते। अजपालकः ध्रुवं प्रति अनुप्रभावितम्। अनन्तरं शिशुं दृष्ट्वा ते सर्वान् अवदन् यद् ते देवदूतीं मेलनं कृतवन्तः, या देवस्य विषये उक्त। चत्वारिंशत् दिननी अनन्तरं जोसेफ मैरिया सह जीससं जेरूसलेमे मंदिरे अनियत, तत्र सिमेन नमना नरह देवाय अप्रसीदत, तथा अन्या देवस्य सेविका आना नन्मा धन्यवादम अज्ञापयत्। द्वौ द्वौ अजानिताम यद् जीजस देवस्य पुत्रः आसीत्, यह लोकस्य रक्षकः अस्ति। जोसेफ द्वौ पक्षिणौ आहूतम्, इदम् उपहरण देवस्य विधि आसीत्। दरिद्रेण नरेण एषा विधि कर्तव्या, यदा ते तेषां नवजातं शिशुं देवं कृते अप्रासिदन्। कदाचित् समये अनन्तरं एकः विशेषः नक्षत्रः एकं प्राज्ञं नरम् एष्टनर्तः जेरूसलेमम् अनियम्। सः कुत्र अस्ति, यः यहूदुः स्वमीरूपेण अजन्मत्, ते अपृच्छन्, वयं तम् अर्चितुम् इच्छामः। हेरोड अश्रुतये तस्य प्राज्ञस्य विषये विचलितं सः तान् अपृच्छत्, यद् तं वदेत् यदा ते जीजसम् अप्राप्नुवन्तः, अहमापि तम् अर्चितुम् इच्छामि, किन्तु सः मिथ्यायम् अवदत्। हेरोड जीजसम् हननम् ऐच्छत्। सः एकः विशेषः नक्षत्रः तान् प्राज्ञान् हि तत् गृहं प्रति अनीतवान्, यत्र जोसेफ तथा मैरी तेन शिशुना सह अनिवसताम्। भगवत शरणं गन्तुं पथिका जीजसाय स्वर्ण उपहाराणि सुगंध द्रव्याणि च अददुः। देवः प्राज्ञान् प्रत्यादिष्ट यद् स्वस्य गृहिणी प्रति गुप्त रूपेण गच्छत हेरोड क्रुद्ध नासीत्। सः निश्चयं कृतवान् यद् सः जिजुषं मारिष्यति। सः क्रूरः नृपः बेथेलं सर्वान् शिशवः हतः। किन्तु हेरोड देवस्य पुत्रां किमपि शति कर्तुम् असमर्थः आसीत्। स्वप्ने निर्दिष्टं जोसेफ मैरीं शिशुं च मित्रदेशे अनीतवान्। यदा हेरोड मृतः तदा जोसेफ मैरीं शिशुं च मिश्रदेशात् अनीतवान्। ते नाजारेत नामने देशे अनिवसन् गलील्या समुद्रं समीपे। यीशुः जन्म। बाइबल इति कथा भगवत वाक्यम प्राप्नुयाम मैथ्यू 1:2 भाग 1:2। भवताम वाक्यम अस्माभिः प्रकाशयते भक्ति गीतम क्रमांक 119-130। देवः जानाति वयम् अनुचित कार्यान् कृतवन्तः यान् स पापं कथयति। पापस्य दण्डनं मृत्युः वर्तते। देवः अस्मान् स स्नेहति। सः स्वकीयम् एकमेव पुत्रः जीजस् इत्ययं प्रेषितवान् यः क्रौश्चिह्ने मृतः तथा अस्माकं पापानां कृते दण्डे प्राप्तवान्। तदा सः पुनरागत्य जीवनं प्राप्तवान् स्वर्गश्च गतवान्। अधुना देवः स्वपापानां कृते क्षमां दातुं शक्यते। यदि त्वं स्वपापैः निवर्तनं वाच्छसि तदा स्वदेवेन प्रार्थय हे देव अहं विश्वसामि यत् भवानेव देव तथा मानव रूपं धृत्वा मदीयं पापानां कृते निर्यायति एवं अधुना पुनः अधिवसते। हे देव मम जीवने आगत्य मदीयं पापैः विमुच्छतु येन अधुना मां नूतन जीवनस्य प्राप्तिर्भवेत् एवं कस्य चिह्निन्ने भवता समीपे सदैव निवसामि। मम सहायं करोतु यद् अहं भवताम् आज्ञां परिपालयामि तथा भवताम् समीपे पुत्रवत् एवं निवसामि। बाइबल पठन्तु तथा च देवेन सह प्रतिदिनं वार्ता कुर्वन्तु।